हरि ओम् नमः। अस्माकं प्रवर्तमानः विषयः अस्ति अतः यतः इति। अस्मिन् विषये गतवर्गे किञ्चित् दृष्टवन्तः वयं। तत्र अतः इत्युक्ते किं, यतः इत्युक्ते किं, तत्र वाक्यद्वयं भवति। तत्र कार्यवाक्यमेकमस्ति, तदनन्तरं कारणवाक्यमिति एकमस्ति। अतः इति स्थाने एकरीत्या वदामः कारणकार्यवाक्य वाक्यद्वयं, यतः इति स्थाने कारणकार्यवाक्यम् अन्या रीत्या वदामः। तत्र उदाहरणार्थं तत्र यत् अस्ति तद् तत्र पेज् 181 मध्ये तत्र एतत् वयं न कृतवन्तः इति मन्ये। तत्र प्रकोष्ठे इति तत् कृतवन्तः, तस्य अधोभागे तत्र एषा बालिका इति ततः आरम्भं कर्तुं शक्नुमः इति मन्ये। तत्र एव चर्चा अपि कर्तुं शक्नुमः। अस्तु, तर्हि तत्र पूर्णेन्दुमहोदय, तत्र तत्र एषा बालिका स्वस्था पेज् 181 मध्ये तत्र एकवारं तत् वाक्यं पठित्वा किञ्चित् वदति वा?
आं महोदय। एषा बालिका स्वस्था यतः एषा प्रतिदिनं भ्रमणं करोति।
हा इति तत्र का कास् एण्ड् एफेक्ट् इति वदामः खलु, कारणम् अपि कास् अपि कार्यम् इति एफेक्ट् इति। तत्र कारणं किम् अपि कार्यं किम्?
बालिका स्वस्था, एषा बालिका स्वस्था, एतत् कारणम्। अतः सा प्रतिदिनं भ्रमणं करोति, एतत् कार्यम्।
स्वस्था अस्ति अतः सा भ्रमणं करोति वा, अथवा विपरीत?
द्वयमपि साधु एव दृश्यते।
यथा दत्तं, यथा दत्तं, सत्यं सत्यमेव, किन्तु केवलं यथा दत्तं, यत् वाक्यं तत्र अस्ति तस्य अर्थः एव साधु खलु। नूतनवाक्यमपि कर्तुं शक्नुमः, किन्तु यत् वाक्यं दत्तम् अस्ति तत्र कार्यवाक्यं किम् अस्ति महोदय, पूर्णेन्दुमहोदय?
तत्र भ्रमणम् एकं कार्यम् अस्ति, स्वस्था
इति एका क्रिया अस्ति, तत्र कार्य क्रियाद्वयम् इति, हा क्रियाद्वयम् इति अथवा वाक्यद्वयम् अस्ति। अस्तु, तत्र अस्तु, अतः तत्
हावस्था अस्ति,
हा स्वस्था अवस्था, अन्यदपि भ्रमणम् इति क्रिया अस्ति। अस्तु, तत्र किन्तु किं कारणम् इति, तत्र कारणवाक्यं किम् अस्ति इति, यतः इति। तत्र पूर्णिमहोदय, तस्य पूर्ववाक्यं पश्यतु, प्रकोष्ठे इति।
आम्, प्रकोष्ठे अन्धकारः नास्ति यतः दीपः ज्वलति।
हा, तत्र कारणवाक्यं किम्?
कारणं दीपः ज्वलति, अतः अन्धकारः नास्ति। दीपस्य ज्वलनम् एव कारणम्।
हा, अन्धकारणं तु नास्ति इति तु न कारणं खलु। अतः अत्र तत्र कारणवाक्यं दीपः ज्वलति इति, कार्यवाक्यं तेन यत् कार्यं भवति तदस्ति प्रथमवाक्यं, प्रकोष्ठे अन्धकारः नास्ति इति। अतः तस्मात् किम् अवगन्तुं शक्नुमः, यतः इति स्थाने यतः पूर्वमेकं वाक्यमस्ति, यतः परम् एकं वाक्यमस्ति। तत्र परं वाक्यं किं भवति, कारणवाक्यं वा कार्यवाक्यं वा?
परं वाक्यं, परं वाक्यं कारणवाक्यं, पूर्ववाक्यं कार्यवाक्यं,
कार्यवाक्यं। हा, अतः तस्मात् अत्र एषा बालिका स्वस्था, यतः एषा प्रतिदिनं भ्रमणं करोति। अत्र
अत्र एषा प्रतिदिनं भ्रमणं करोति इति वाक्यं कारणवाक्यमस्ति, पूर्वं वाक्यम् इत्युक्ते एषा बालिका स्वस्था, एतत् कार्यवाक्यमस्ति,
कार्यवाक्यमस्ति।
सा वाक्य भ्रमणं स्वस्था, भ्रमणं
स्वस्थायाः कारणं, स्वस्थायाः कारणं
भ्रमणं करोति,
भ्रमणं, भ्रमणं, प्रतिदिनं भ्रमणम् इति कारणं भवति, स्वस्थायाः कारणम् इति। हा, तदेव वाक्यं अतः उपयुज्य वक्तुम् इच्छामश्चेत् किं भवति?
एषा बालिका प्रतिदिनं भ्रमणं करोति, अतः स्वस्था अस्ति.
हा, सा स्वस्था अस्ति. समीचीनं महोदय. हा, समीचीनं महोदय, समीचीनं, धन्यवादः. हा, गीताञ्जलि भगिनी, तत्र अधोभागे तत्र अवधेयम् इति अस्ति, तत् एकवारं वद पठतु भगिनि. 181 मध्ये
अवधेयम्. अत्र वाक्येषु कार्यवाक्यं प्रथमम् उक्तं, कारणवाक्यं च अनन्तरम्. यतः इति अव्ययस्य प्रयोगः कारणवाक्येन सह कृतः अस्ति. उदाहरणम् अहम् उष्णजलं पातुम् इच्छामि यतः अद्य शैत्यम् अस्ति.
तत्र कारणवाक्यं किम् अस्ति?
कारण इत्युक्ते यतः यद्य अद्य शैत्यम् अस्ति.
हा, अद्य शैत्यम् अस्ति इति कारणवाक्यं, तेन वाक्येन सह यतः इति पदः गच्छति.
गच्छति,
प्रयोगः भवति.
अतः इति इति अत्र अद्य शैत्यम् अस्ति, अतः आम् अहम् उष्णजलं पातुम् इच्छामि.
हा, इति समीचीनं भगिनि. अतः तत्र किं, यतः कारणवाक्येन गच्छति अथवा अस्ति, अपि अतः इति कार्यवाक्येन.
यतः इत्युक्ते बिकास्, अतः इत्युक्ते देयरफॉर.
हा, सत्यं भगिनि. हा, तदेव, सः एव. हा, यतः इति कारणं सूचयति, अतः इति तेन कारणेन किं कार्यं भवति इति सूचयति. तस्मात् किम् इति अतः सूचयति, कस्मात् इति यतः सूचयति.
महोदय, एकः प्रश्नः. एक प्रथमबिन्दु, एषा बालिका प्रतिदिनं भ्रमणं करोति, अतः एषा स्वस्था इति अपि समीचीनम्.
तावदेव, स्वस्था अथवा स्वस्था अस्ति इति. तत्र स्वस्था इति कीदृशपदं, तत्र क्रियापदं वा?
न, बालिका स्वस्था क्रियापदं महोदय, स्त्रीलिङ्ग.
क्रियापदम् अस्ति चेत् लिङ्गं नास्ति खलु तत्र.
अत्र विशेषणविशेष्य
समीचीनं भगिनि. अतः बालकः स्वस्थः, बालिका स्वस्था, स्वस्था, तत्र कीदृशक्रियापदं योजितुं शक्नुमः अस्ति इति, तावदेव.
न, महोदय उक्तवान् सा स्वस्था, अहम् उक्तवती एषा स्वस्था.
ओ, अस्तु अस्तु, एषा एषा एषा. तत्र एषा इति अस्ति, सत्यं भगिनि. तत्र एषा इति बालिका समीपमेव अस्ति इति कृत्वा तत्र तत्र एषा बालिका प्रतिदिनं भ्रमणं करोति, अतः एषा स्वस्था. समीचीनं भगिनि, सत्यमेव. समीचीनम्. अस्तु, अग्रिमं वाक्यं करोति वा?
आं महोदय. एषः बालकः अपि स्वस्थः, यतः एषः अपि प्रातः भ्रमणं करोति. एषः बालकः अपि प्रातः भ्रमणं करोति, अतः एषः अपि स्वस्थः.
हा, अस्तु, एषः अपि प्रातः भ्रमणं करोति. तत्र अपि इति एषः अपि भ्रमणं करोति इति एव केवलं तत् सूचयति इति मन्ये, किन्तु तत्र भ्रम अपि भवितुम् अर्हति खलु. तत्र बालिका अपि प्रातः काले एव भ्रमणं करोति इति. अस्तु, अस्तु.
अपि च एषः बालकः अपि करोति, यतः सः अपि स्वस्थः.
न, 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 अतः अतः अतः
अतः क्षम्यताम्, अतः अपि स्वस्थः.
अतः एषः अपि स्वस्थः, स्वस्थः. समीचीनं भगिनि. अस्तु, अग्रे नरेश महोदय.
दीपः न ज्वलति यतः विद्युत् नास्ति.
तत्र कार्यवाक्यं कार्यवाक्यं किं कारणवाक्यं किं?
कार्यवाक्यं दीपः न ज्वलति, कारणं विद्युत् नास्ति.
हा इति समीचीनं महोदय. हा
विद्युत् नास्ति अतः दीपः न ज्वलति.
हा इति समीचीनं महोदय. अस्तु अग्रे रघुपतिमहोदय.
हा महोदय, अहम् अभ्यासं करोमि यतः सम्यक् संस्कृतं वक्तुम् इच्छामि.
तत्र कार्यवाक्यं कारणवाक्यं?
हा कार्य अस्ति, अहम् अभ्यासं करोमि इति कारणमस्ति, कारणमस्ति अहं वक्तुम् इच्छामि इति कारणमस्ति.
हा वक्तुम् इच्छामि इति कारणमस्ति. अहम्
अभ्यासं करोमि
अभ्यासं करोमि. समीचीनं. किन्तु ततः पुनः अपि अग्रे अभ्यासं करोमि चेत् संस्कृतं सम्यक्तया वक्तुं शक्नोमि इति तद् भिन्न कार्यं भवति. तत्र केवलम् इच्छा इति कारणम् अस्ति.
इच्छा इति इच्छा
इच्छा अस्ति इति कारणं.
अतः अभ्यासं करोमि.
हा इति भवति. अस्तु. हा इच्छा इति कारणं भवति, अभ्यासं करोमि कार्यमस्ति. पुनः अभ्यासं करोमि इति कारणम् इति स्वीकुर्मश्चेत् तत्र सम्यक् संस्कृतं वक्तुं शक्नोमि इति कार्यं, तस्य कार्यं भवति
पुनः.
अस्तु समीचीनं. पूर्णेन्दु महोदय पुनः अग्रिमम्.
वयम् एव परिवेषणं कुर्मः यतः अद्य अस्माकं पर्यायः अस्ति. अद्य अस्माकं पर्यायः अस्ति अतः वयं परिवेषणं कुर्मः.
वयमेव परिवेषणं कुर्मः कुर्मः. परिवेषणम् इत्युक्ते तत्र
परिवेषणम् इत्युक्ते
भोजनस्य परिवेषणं. सर्विङ्ग् इति. समीचीनं महोदय. अस्तु. गीताञ्जलि भगिनी अग्रे.
अद्य बुधवासरः अस्ति यतः ह्यः मङ्गलवासरः आसीत्. ह्यः मङ्गलवासरः आसीत् अतः अद्य बुधवासरः
अस्ति. समीचीनं भगिनि. हा तावदेव. अस्तु. अतः तत्र यत्र यत्र यतः अस्ति तादृशवाक्यं वयम् अतः इति वाक्यरूपेण परिवर्तनं कर्तुं शक्नुमः. तत्र भेदः नास्ति. अतः इति रूपस्य वाक्यं यतः इति रूपेण कर्तुं शक्नुमः. यत इति यत्र अस्ति तादृशवाक्यम् अतः इति रूपेण परिवर्तनं कर्तुं शक्नुमः. अस्तु अग्रे गच्छामः. तत्र किञ्चिदेव अस्ति तत्र अतः यतः इति तस्य अभ्यासः. तदनन्तरं सम्बोधनम् इति अस्ति. तदनन्तरम् अव्ययानि इति पश्यामः. तदनन्तरं केवलं तत्र अन्या कथा अस्ति इति मन्ये. तत्र सप्तविभक्तयः इति कथा. तदनन्तरम् एतत् गीतासोपनं प्रथमभागं समाप्तं भवति.
अस्तु महोदय. अत्र पर्यायः इति दत्तम् इत्युक्ते किन्तु पर्यायवाची भिन्न, कम्प्लीट्लि भिन्न.
सत्यं सत्यं सत्यं. सत्यं पर्यायपदम् इति खलु.
पर्यायपदम्
समानार्थकपदं. समानार्थकपदं तत्र. सत्यं भगिनि. सत्यं.
अस्तु भिन्न
भिन्न अर्थः. अत्र अस्ति टर्न् इति.
धातु एव भिन्न महोदय.
धातु एव भिन्न इत्युक्ते पर्यायः इति
परि न जानामि.
अस्तु भगिनि. अत्र रूपसमानम् अस्ति किन्तु तत्र किं योगार्थः भिन्नः इति वा?
आम् महोदय. टर्न् इतर अत्र पर्याय इत्युक्ते पुंलिङ्ग.
सत्यं सत्यं. पर्यायः इति पुल्लिङ्गपदम् अस्ति.
इत्युक्ते पर्यायपदं तत्र पर्याय इति विशेषणम्.
अत्रापि अस्माकं पर्यायः इति तत्र पर्यायः इति अत्र तु पुल्लिङ्गपदमेव, विशेषणं नास्ति. सत्यं भगिनि.
किन्तु पर्यायपदम् इत्युक्ते पर्याय इति विशेषणं महोदय, अहं न जानामि
सत्यमिति मन्ये भगिनि। पर्यायपदं कीदृशपदं? पर्यायपदम् इति विशेषणभावम् अस्ति तत्र, सत्यं। किन्तु तत्र योगार्थः भिन्न वा इति तत्र न जानामि भगिनि, द्रष्टव्यम् अस्ति। रघुपतिमहोदय किमपि वक्तुम् इच्छति वा अत्र?
महोदय, तत् तत् धातु एक एव, ई धातु इण् गतौ इति, पर्याय इति गञ् प्रत्ययः, राम इति भवति, परियोगः अस्ति अस्ति अस्तु अत्र परियोग इति पर्याय द्वयमपि समानमेव, धातु एक एव अहं चिन्तयामि।
अस्तु,
इति धातु अस्ति,
दीर्घ इ महोदय
न इ इन् गतौ इति अस्ति खलु, इन् गतौ इति अस्ति, इण् इण् इति एति इति अस्ति खलु, तत्र तत्रापि एतदेव अस्ति, इ इति एति
एति गच्छति अर्थे अर्थे अस्ति,
हा गच्छति अर्थे तदर्थे एव
यदि वदतु भगिनि।
न अहम् इति पृच्छति पृच्छामि महोदय, परियोग इ पर्यायपदमे अपि निष्पन्नं करोति,
हा न इ इति अस्ति, इ इति घञ् प्रत्ययः अस्ति, तत्र वृद्धिः भवति इति अहं चिन्तयामि, अहं न जानामि, यत्र रं धातुः अस्ति राम इति भवति, यत्र घञ् प्रत्ययः अस्ति, तत् कृदन्तप्रत्ययः अस्ति, तत्र प्रथमं स्वरः सर्वदा प्रथमस्वरः दीर्घः भवति, रम इति राम इति, तत्र अहं न जानामि एतत् किमर्थ कथम् इति पर्याय आय इति अभवत् इति योग घञ्।
अस्तु अस्तु, धन्यवादः महोदय।
अत्र प्रायशः किमपि वक्तव्यमस्ति भगिनि, न दृष्ट्वा यदि कोऽपि प्राप्नोति वदन्तु वदतु। अस्तु, अन्यप्रश्नः? अस्तु, नो चेत् अग्रे गच्छामः। अत्र पेज् 182 मध्ये तत्र नरेश महोदय आरम्भं करोति वा अग्रिमे?
यथोदाहरणं यतः योजयित्वा पठत, उदाहरणं सः पञ्चवस्त्राणि धृतवान् यतः तत्र शैत्यम् अस्ति। सः पञ्चवस्त्राणि धृतवान् कार्यमस्ति, तत्र शैत्यम् अस्ति कारणं,
कारणवाक्यं समीचीनं महोदय, समीचीनं। अग्रे,
तत्र शैत्यम् अस्ति अतः सः पञ्चवस्त्राणि धृतवान्
इति रूपमपि वक्तुं शक्नुमः, समीचीनं महोदय, समीचीनम्। अग्रे,
कृष्णः गीताम् उपदिष्टवान्, अर्जुनः विषन्नः, कृष्णः गीताम् उपदिष्टवान् यतः अर्जुनः विषन्नः,
समीचीनम्।
अर्जुनः विषन्नः अतः कृष्णः गीताम् उपदिष्टवान्,
समीचीनं महोदय। तत्र तु कारणम् अपि कार्यं बहु सम्यक्तया दृश्यते खलु, तत्र भेदः अस्ति इति, समीचीनं महोदय, समीचीनं। अस्तु, अग्रे रघुपति महोदय, रोगमुक्तः पेज् 182
पेज् 182 रोगमुक्तः, रोगमुक्तः भवति सा योगम् अनुसरति, रोगमुक्तः यथोदाहरणं यथा सः पञ्चं किं करणं यतः, अस्तु सः योगं
सः
रोगमुक्तः, सः रोगमुक्तः भवति यतः तेन सोरि सः योगम् अनुसरति,
सः योगाभ्यासं करोति, योगम् अनुसरति, तद्भवति कारणं कार्यं भवति
रोगमुक्तः
रोगमुक्तः तत्र मुक्तिः भवति
मुक्तिः रोगात् मुक्तिः इति कार्यं
समीचीनं महोदय अस्तु अग्रे पूर्णेन्दु महोदय
अभ्यासेन मनः गृह्यते तत् दुर्निग्रहं चलम् एतत् तु अहं किम् उदाहरणम् एव करोमि अभ्यासेन मनः गृह्यते यतः तत् दुर्निग्रहं चलम्
तत्र तत् इत्युक्ते किम्
तत् दुर्निग्रहं चलम्
मनः तत्र मनस् इति तत्र नपुंसकलिङ्गपदम् अस्ति मनः इति तत्र तत्र रूपं भवति अभ्यासेन मनः गृह्यते यतः मनः तत् मनः दुर्निग्रहं छलम् इत्युक्ते तत्र तस्य ग्रहणं सुलभं नास्ति खलु तत्र मनः अस्ति तस्य ग्रहणं सुलभेन कर्तुं शक्नुमः वा वयं न खलु अतः तद् कीदृशमनः दुर्निग्रहं मनम् अपि तत् छलं छलम् इत्युक्ते अतः तत्र एकस्मिन् चञ्चल इति यत् वदामः तादृश तत्र एकस्मिन् स्थले न भवति तत्र योजनेषु विषयेषु अनेकेषु विषयेषु तत् इतः ततः गच्छति खलु अतः तत्र एक तत्र अतः तत्र निग्रहमपि दुष्करम् अपि एकस्मिन् स्थले तद् तस्य स्थापनमपि दुष्करम् इति अतः तत्र अन्यत् किमपि आवश्यकं माध्यमं किमपि आवश्यकम् इति कृत्वा अभ्यासेन मनः गृह्यते
दुर्निग्रहं चलं विशेषणं विशेष्य
तत्र विशेषणद्वयमस्ति मनं
प्रति दुर्निग्रहं चलं च
चलं च सत्यं तद् इति मनः मनः दुर्निग्रहं मनः चलम् पूर्णेन्दु महोदय तत्र अन्यरीत्या वदामश्चेत् कीदृशवाक्यं भवति तत्र
मनः दुर्निग्रहं चलम् अतः अभ्यासेन तत् गृह्यते
इति समीचीनं महोदय समीचीनं अस्तु अग्रे गीताञ्जलि भगिनि
अहं ते दिव्यं चक्षुः ददामि अनेन
स्वचक्षुषा
मां द्रष्टुं न शक्यते अहं ते दिव्यं चक्षुः ददामि इति कार्यम् अनेन स्वचक्षुषा मां द्रष्टुं न शक्यते
इति कारणम् अतः तत्र पूर्णवाक्यं वदतु तत्र मध्ये किं स्थापयामः
अहं ते दिव्यं चक्षुः ददामि यतः अनेन स्वचक्षुषा मां द्रष्टुं न शक्यते
तत्र अत्र किञ्चित् क्लेशः अस्ति इति जानामि अत्र प्रथमतया एतत् पश्यामः तत्र चक्षुः इति अस्ति अहं ददामि खलु भगिनि अहं ददामि इति क्रियापदम् अस्ति किं ददामि इति तत्र कर्मपदं किं भवति
चक्षुः
कीदृशः चक्षुः
दिव्यं
दिव्यम् इति पदस्य लिङ्गं किं
नपुंसकलिङ्गं
तत् विशेषणमस्ति वा चक्षुः प्रति अतः चक्षुः कीदृशपदं तदपि चक्षुः अपि नपुंसकलिङ्गपदं समीचीनं भगिनि अतः तत्र दिव्यं चक्षुः इति कर्मपदं भवति ददामि इति क्रियापदं भवति, अहम् इति कर्तृपदं भवति. किन्तु तत्र ददामि अस्ति चेत् अन्यत् प्रश्नः, अन्यप्रश्नः अपि भवति. कीदृशप्रश्नः? किं ददामि इति एकः प्रश्नः. अन्यप्रश्नः
किमर्थं ददामि
अथवा कस्मै, अतः तत्र ते इति यत् पदमस्ति तद् किमस्ति?
ओ आम्, चतुर्थी एव.
कस्य पदस्य?
चतुर्थी एकवचन ते. नमस्ते अपि
समीचीनं. त्वम् इति, त्वम् इति प्रथमाविभक्तिरूपं, ते इति चतुर्थीविभक्तिरूपं. समीचीनं भगिनि. अतः तत्र ते इति, ते इति भवति. अतः एव तत्र अन्य द्वितीयवाक्ये किम् अस्ति क्रियापदं शक्यसे इति. तत्तु मध्यमपुरुषः अस्ति खलु? अत्र ते अपि मध्यमपुरुषः. अतः इदानीं तत्र
एकवचनं वाक्यमस्ति महोदय, द्वितीयवाक्यम् अनेन.
अस्तु, अनेन, अनेन अस्तु. तत्रापि पश्यामः, तत्र क्रियापदं किम् अस्ति?
द्रष्टुं
न, क्रियापदं, क्रियापदं, क्रियापदं
शक्यसे,
शक्यसे इति. अत्र कर्तृपदं किं?
कर्तृपदं
शक्यसे अस्ति चेत् तत्र एकमेव कर्तृपदं भवति.
आम् आं महोदय, किन्तु
न दत्तं, न दत्तं, न दत्तं. किन्तु वदतु, शक्यसे अस्ति चेत् किम् अस्ति कर्तृपदं?
कर्तृपदं किम्? कोऽपि अन्य,
न न न, शक्यसे, शक्यसे. तत्र ददामि अस्ति चेत्, ददामि अस्ति चेत् तत्र भवानपि न, भवानपि न, भवानपि न, त्वम् एव. त्वं शक्यसे, त्वं शक्यसे. तत्र त्वं न शक्यसे, द्रष्टुं न शक्यसे. कं द्रष्टुं न शक्यसे? मां द्रष्टुं न शक्यसे. अस्तु, किन्तु इदानीं किं, केन, केन द्रष्टुं न शक्यसे?
अनेन,
स्वचक्षुषा.
अनेन इत्युक्ते दिव्यं चक्षुः?
न न न न न न न, तत्र दिव्यम् इति न भगिनि, तत्र स्वचक्षुः इति. तत्र स्वचक्षुषा इति तत्र विभक्ति का?
स्त्रीलिङ्ग् एक प्रथमवचन, प्रथमविभक्ति एकवचनरूपं महोदय.
प्रथमविभक्ति एकवचनम् इति वा? तत्र चक्षुः इति भवति उक्तवती, तत् चक्षुष इति भवता एव तादृशरूपं. तत्र चक्षुषा इति, चक्षुषा इति तृतीयविभक्तिरूपम्. अनेन तत् चक्षुः, तत् चक्षुः अनेन, अथवा एतत्
तत्र
इदम् 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 अनेन इदम् इदं चक्षुः, स्वचक्षुः, अनेन स्वचक्षुषा इति.
इदम् इदं यदि अस्ति चेत् तदनन्तरं अपि विशेषण, किन्तु अत्र विशेषण विशेष्य समानेव विभक्तिवचनरूपं भवतु इति कारणेन अनेन दत्तं न महोदय?
न न, अत्र अनेन इति स्थाने एतेन अपि भवति खलु?
एतेन,
एतत् इति एतेन, किन्तु तत्र अनेन इति रूपं स्वीकृतं, तावदेव.
अनेन, एनेन
इति तत्र बहु,
इदम् इदम् इमे इमानि इति अस्ति तत्र तृतीय.
माम् इति कर्मपदं,
द्रष्टुं तत्र, तत्र न द्रष्टुं, मां द्रष्टुं, द्रष्टुं द्रष्टुं किं द्रष्टुं मां द्रष्टुम् इति द्रष्टुम् इति क्रियासूचक प्रति माम् इति कर्मपदं भवति अतः अनेन स्वचक्षुषा इत्युक्ते तत्र स्वचक्षुषा एव स्वचक्षुषा मां द्रष्टुं न शक्यसे अतः तत्र दिव्यचक्षुः इति विषयः नास्ति तत्र द्वितीयवाक्ये
अनेन स्वचक्षुषा मां द्रष्टुं न शक्यसे अतः अहं ते दिव्यं चक्षुः ददामि
हा इति समीचीनं भगिनि समीचीनं भगिनि समीचीनं भगिनि तत्र किञ्चित् क्लेशः एव अस्ति किन्तु इदानीं समीचीनं
धन्यवादः
नमस्कारः भगिनि अस्तु नरेश महोदय अग्रे
तव वचनं करिष्ये मोहः नष्टः तं वचनं करिष्ये यतः मोहः नष्टः तं वचनं करिष्ये तव वचनं करिष्ये कार्यमस्ति मोहः नष्ट कारणमस्ति मोहः नष्टः अतः तव वचनं करिष्ये
इति समीचीनं महोदय समीचीनं अग्रे रघुपति महोदय
महोदय अहं ते हितं वक्ष्यामि त्वं मे प्रियः अहं ते हितं वक्ष्यामि यतः त्वं मे प्रियः यतः त्वं मे प्रियः इति
हा समीचीनं महोदय तत्र अतः इति अस्ति चेत्
अतः त्वं मे प्रियः अतः अहं ते हितं वक्ष्यामि इति
समीचीनं महोदय तावदेव अस्तु पूर्णेन्दुमहोदय अग्रे
ऋषयः ब्रह्मनिर्वाणं लभन्ते ते क्षीणकल्मषाः अत्र ते क्षीणकल्मषाः इति कारणवाक्यं ऋषयः ब्रह्मनिर्वाणं लभन्ते इति कार्यं ऋषयः ब्रह्मनिर्वाणं लभन्ते यतः ते क्षीणकल्मषाः
अत्र ते इति पूर्ववाक्ये ते अपि आसीत् अत्र अपि ते अस्ति किन्तु समान नास्ति खलु अहं ते हितं वक्ष्यामि इति तत्र अहं ते इति अस्ति पूर्वस्मिन् वाक्ये अत्र ते इति अस्ति तत्र भेदः
कः बहुवचन
इदानीं तत्र उत्तमपुरुष बहुवचन ते इति ऋषयः इति अस्तु समीचीनं महोदय अस्तु अग्रे गीताञ्जलि भगिनि
त्वं शोचितुं न अर्हसि अयम् आत्मा अच्छेद्यः अच्छेद्यः इत्युक्ते किं महोदय
तत्र तत्र शोचितुं तत्र
अच्छेद्य इत्युक्ते पियर्स्ट् महोदय त्वं शोचितुं न अर्हसि यतः अयम् आत्मा अच्छेद्यः इत्युक्ते त्वं दुःखं मा करोतु न अर्हसि मा करोतु यतः अयम् आत्मा अमृतः इत्युक्ते
तादृश तस्य परिवर्तनं किमपि तत्र तस्य किमपि हानि न भवति
न भवति अयम् आत्मा
अच्छेद्यः
नित्यः तस्य मरणमपि किमपि नास्ति इति तस्य इति कृत्वा
अयम् आत्मा अच्छेद्यः अतः त्वं शोचितुं न अर्हसि
इति तत्र अच्छेद्यः इति किं भवति?
अच्छेद्यः इति आत्मविशेषणं महोदय. किन्तु आत्मा इति स्त्रीलिङ्ग् पदं
न आत्मा इति आत्मन् नकारन्त. अग्रिमे इदानीं गीतासोपाने द्वितीयभागे तत्र हलन्त प्रातिपदिकानि पश्यामः.
आ इति पश्यामि अपि चेत्
सत्यं भगिनि, सत्यमेव ब्रह्मजाता. किन्तु तत्र अच्छेद्यः इति दृष्ट्वा विशेषणमस्ति चेत् तत् पुल्लिङ्गम् एव भवति इति. अपि तत्र अयम् इति तदपि न
अयम् इति प्रातिपदिकस्य
अयम् इति तत्र पेज् 200 पश्यतु भगिनि, तत्र पेज् 200 पश्यतु. तत्र
अयम् इमौ इमे,
अयम् इमौ इमे इति
पुंलिङ्ग् एव.
इदं शब्दस्य पुल्लिङ्गरूपम्
आत्मायाः विशेषणं तदपि भवितुमर्हति.
अतः तत्र अस्तु, अतः तत्र अयम् इति पुल्लिङ्गरूपं. समीचीनं. अस्तु, इदानीं तत्र किं चिन्तनम्? एतदेव कुर्मः वा, यतः ततः यतः अतः इति, अथवा तत्र सम्बोधनं कुर्मः वा, अथवा अव्ययानि इति कुर्मः वा, किं चिन्तनम्? अग्रिमपुटे तु अग्रिम अध्याये अस्ति हे कृष्ण हे माधव इति सम्बोधनं. तस्य अग्रे अस्ति गर्वभङ्गः इति. अव्ययानि यत्र तु तत्र अतः यतः इति तत्र पेज् 182 मध्ये यदस्ति तद् गृहपाठरूपेण स्वीकुर्मः तत्र वाक्यानि. अपि तत्र सम्बोधने किमपि नास्ति इति मन्ये खलु? तत्र केवलम् एकवारं पश्यामः,
एकवारं तत् रूपं पश्यामः महोदय, 184 मध्ये कथं भवति,
184 मध्ये पश्यामः, तदनन्तरम् अव्ययानि कुर्मः. समीचीनं वा?
183
तत्र केवलं रूपम् अस्ति इति मन्ये अतः भगिनि तत्र. अस्तु, तत्र गीताञ्जलि भगिनि भवती एव पठति वा तत्र सम्बोधनरूपाणि इति, तत्र पेज् 184 मध्ये किम् अस्ति इति.
आं महोदय, सम्बोधनरूपाणि पुत्रः पुत्र मन्या मन्ये अम्बा अम्ब लक्ष्मीः लक्ष्मी गौरी गौरी पिता पितः माता मातः गुरुः गुरो मित्रं मित्र मुनिः मुने मन्त्री मन्त्रिन् राजा हे राजन् श्रीमान् हे श्रीमन्
तत्र कीदृश पुत्र इति, पुत्र अस्ति किन्तु ताम् आगन्तुं सः आगच्छतु इति इच्छामः, अतः वयं सम्बोधनं कुर्मः हे पुत्र इति. हे पुत्र,
एकं विचित्र वार्ता महोदय, यदि वयं सम्बोधन कुर्मः तदनन्तरं किमपि ह्रस्वान्तरूपमे अपि दीर्घ इच्छामः, किन्तु अत्र सम्बोधनरूपाणि एव ह्रस्व.
सत्यं भगिनि, अस्तु 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 अस्तु, सत्यं. पुत्रा इति किमपि वक्तुम् इच्छामः किन्तु अत्र पुत्र इति अस्ति, सत्यं भगिनि.
किमर्थं लक्ष्मी इति लक्ष्मी
सत्यं सत्यं अतः ते सर्वे वेगेन आगच्छन्तु इति प्रायश विलम्बः मास्तु इति तत् समयः नास्ति शीघ्रम् आगच्छतु इति अतः तत्र पुत्र
तत्र समये सर्वे ओबिडियन्ट् सन्ति
तत्र महोदय लेखन लेखनविषये क्लेशः अस्ति अत्र त्रिमात्रक नाम तत्र यत् पुरातनग्रन्थेषु त्रिमात्रकाल इति लिखति अत्र क्लेशः भवति खलु पुत्रा इति तत्र त्रि इति त्रीणि इति लिखन्ति केचु प्लुता इति यद्यपि अत्र अस्ति प्लुता अस्ति पुत्र इति प्लुता एव तत्र न दृश्यते लेखितुं न शक्नुमः खलु पुत्र इति तस्य रूपं नास्ति खलु यथा पुत्र अस्ति तत्र दीर्घ अस्ति पुत्रस्य पुत्र अन्यदपि दण्डः भवति खलु पुत्र
अस्तु सत्यं 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 तत्र दण्डद्वयम्
अद्य हर्तव्यम् अद्य हर्तव्यं तत्र नामलिते रैट् त्रि इति तत्र सम्बोधन अस्ति
अस्तु महोदय अस्तु अस्तु अतः पुत्र तदनन्तरं त्रीणि
अहं कुत्रचित् स्थलेषु केषुचित् स्थलेषु अहं दृष्टवान् त्रि इति लिखन्ति ते
ओ बहु समीचीनमस्ति महोदय न ज्ञातवान् एतत् हा अस्तु
अतः एव
अतः
किमर्थम् अत्र न दत्तं त्रि
न इदानीं न ददति
तत्र हा किन्तु बहु समीचीनमस्ति महोदय अस्तु गीताञ्जलि भगिनी भवत्याः प्रश्नस्य उत्तरं प्राप्तम् अत्र
किन्तु रघुपति आचार्य महोदय यदि लक्ष्मी इति ह्रस्व इकारान्त दत्तं तदनन्तरं प्लुत अपि भवति
इति दृष्टवान् आसीत्
अतः तत्र लक्ष्मी इति भवति इति
श्रीमात्रकाले एव अस्ति ऊकालो ह्रस्वदीर्घप्लुता इति अस्ति खलु ऊ इति
प्लुता सर्वे दीर्घ एव
सत्यं भगिनि
वयं न दृष्टवन्तः खलु पुत्रस्य
सङ्केतः नास्ति खलु भगिनि तस्य लेखनसङ्केतः नास्ति
लेखनसङ्केतः नास्ति खलु
किन्तु अत्र तु मात्रा एव ह्रस्वलक्ष्मी इति
न न तत् न लिखितमस्ति पुत्र इति तत्र मात्रा आवश्यकं नास्ति पुत्र इति दीर्घाकार पुत्राः इति तत्र न आवश्यकं पुत्राः इति तत्र
तत्र यत्र एक्स्क्लेमेशन् मार्क् अस्ति तदेव प्लुता इति तस्य चिह्नः इति चिन्तनं प्रायशः
चिन्तनम्
किन्तु तत्र किं स्त्रीलिङ्गे आकारान्तपदे तत्र भेदः भवति खलु मान्या इति तत्र मान्ये इति भवति तत्र किञ्चित् भेदः अस्ति खलु अपि अन्यत्र किं गुरोः अपि गुरुः गुरोः इति भवति
अम्बा इति अस्ति अम्बा
हा अम्बा तत् हा तत् अपि तत्र लक्ष्मीः लक्ष्मी इति तत् तत्र श्लोकेषु पश्यामः खलु तत्र सरस्वती नमस्तुभ्यं मध्ये तत्र ह्रस्व इकारः एव अस्ति हा सम्बोधन इति कृत्वा
किन्तु अहम् इति इति भाति एकं सूत्र अस्ति तत् सूत्रेण दीर्घ विकल्पेन भवितुम् अर्हति सर्वे सम्बोधनरूपाणि
हा अस्तु भगिनि हा अस्तु तादृशमस्ति हा द्रष्टव्यम् अस्ति
दूरे अस्ति चेत् समीपे अस्ति चेत् ह्रस्व इति भवितुम् अर्हति समीपे अस्ति चेत्
तत्र अतः तत्र सम्बोधनरूपे तत्र विकल्पः अस्ति इति भवत्याः चिन्तनं प्रायशः समीचीनं सत्यमेव अस्ति भगिनि हा द्रष्टव्यम् अस्ति हा तत्र सम्बोधनस्य वयं बहु महत्वेन अत्र तस्य चर्चा न भवति किमर्थम् इत्युक्ते सर्वत्र अन्येषु अन्याः विभक्तयः याः सन्ति तासां विषये एव चर्चा भवति खलु. षष्ठीविभक्तौ किमस्ति, सप्तमीविभक्तौ किमस्ति इति तत्र सम्बोधनम् इति बहुवारं तस्य रूपमपि न दत्तानि सन्ति खलु. निग्लेक्टेड् विभक्ति अस्ति किन्तु आवश्यकता तु अस्ति, वयमपि तदेव कुर्मः खलु. अस्तु, केवलं सम्बोधनम् अस्तु.
किन्तु महोदय, किमर्थं सम्बोधन इति विभक्ति इति नास्ति? विभक्ति
एव अस्ति,
सप्तविभक्ति एव, किन्तु अष्टविभक्ति इति न वदामः. किमर्थं महोदय?
ओ, बहु उत्तमप्रश्नः भगिनि. न, तस्य उत्तरं मम पार्श्वे नास्ति, किन्तु बहु उत्तमप्रश्नः अस्ति. हा, प्रष्टव्यमस्ति. तत्र प्रायशः तत्र
आङ्ग्लभाषायां यदि वयम् अहम् आङ्ग्लभाषायां संस्कृत पठामि पूर्वस्मिन् तत्र सर्वे पुस्तकानि अष्टविभक्तिरूपाणि दत्तम्
इति.
किन्तु संस्कृतभाषायाम् इति न सत्यम्.
अस्तु भगिनि, तत्र प्रायशः स्वरूपमहोदयस्य एव तत्र प्रायशः तत्र किमपि भवति इति मन्ये. तत्र
सम्बोधने प्रथमा इति सूत्रमस्ति, अतः एव चिन्तयामि. सम्बोधने प्रथमा इति सूत्रमस्ति, सम्बोधने च इति तत्र सूत्रमस्ति. प्रातिपदिकलिङ्गवचनपरिमाणमात्रे प्रथमा इति. द्वितीयसूत्रमस्ति 2.3.47 सम्बोधने च इति. सम्बोधने च इति इह प्रथमा स्यात् हे राम इति प्रथमा इति. सम्बोधने च प्रथमा विभक्ति भवति इति सूत्रमस्ति, तदेव.
महोदय, किन्तु तत्र यदि विभक्तिं कुर्मः तत्र प्रत्ययः योजयामः खलु तत्र, अतः सम्बोधनस्य प्रायशः अपि प्रत्ययाः स्युः खलु.
प्रत्यय एतदेव.
तत्र सु इत् किमपि वदामः खलु, सु औ जश् तद् प्रत्यय नव इति न क्षम्यताम्.
तत्र लोपः भवति.
तत्र अस्तु, तद् द्रष्टव्यमस्ति भगिनि. किन्तु समीचीनप्रश्नः अस्ति भगिनि, गीताञ्जलि भगिनि. पुनः अग्रिमवर्गे चर्चां कुर्मः तत्र सम्बोधनस्य विषये, तत्र विभक्ति वा न वा इति.
अपि च रघुपति आचार्यमहोदय, किमर्थं सम्बोधन प्रथमा इति दत्तं? द्वितीया अपि भवितुम् अर्हति, सम्बोधनं द्वितीया इति.
किमर्थं
न सम्बोधन प्रथमा इति दत्तं? विभक्तिरूपाणि नामानि, किन्तु सम्बोधन द्वितीया अपि च तृतीया इति अपि भवितुमर्हति वा?
न न, सम्बोधनकारक सम्बोधन प्रथमा विभक्ति एव भवति खलु.
ओ, कारक इति
सम्बोधन प्रथमा एव, प्रथमा एव भवति विभक्ति तत्र.
अस्तु, कर्तापदं स्वीकुर्वन्तु इति.
प्रथमाविभक्ति एव भवति इति अस्ति.
तत्र प्रत्ययान्
कारक प्रथम कर्तृ प्रथम कारके इति भवति एतत्.
सर्वं कर्तृपदमस्ति सम्बोधनम् इति. अस्तु महोदय, सत्यं.
तत्र सम्बोधनस्य विभक्ति तत्र सम्बोधनस्य प्रत्यय न दत्तमस्ति महोदय. तत्र
लोपः भवति अहं चिन्तयामि.
तत्र किन्तु अहं
पुष्पयाः
पुस्तकं शीघ्रबोधम् इति यत् अस्ति तत् पश्यामि. तत्र तु सा तु सम्बोधनरूपं ददाति, किन्तु तत्र
अत्रापि
कथं कुर्मः सम्बोधनम्
इति अस्ति. यद्यपि प्रथमा अस्ति गुरुः प्रथमा इति, परन्तु रूपं गुरुः भवति खलु. मुने भवति, मुने इति भवति. इति गौरी इति अस्ति, तत्र दीर्घ ह्रस्व भवति. अम्बा इति अस्ति मान्या आकारान्तस्त्रीलिङ्ग अस्ति मान्या इति मान्ये भवति परन्तु आकारान्त अम्बा इति अस्ति अम्ब इति भवति तत्रापि किञ्चित् भेदः अस्ति यद्यपि आकारान्तस्त्रीलिङ्ग अस्ति अम्बा परन्तु अम्ब इति अस्ति परन्तु सीता सीते भवति मान्या मान्ये भवति
गीताञ्जलि भगिनी अहं चिन्त्यम् इदानीम् अहं चिन्तयामि किमर्थं सम्बोधनस्य वयं चर्चाम् अस्मिन् वर्गे न कुर्मः इति प्रायशः तस्य रूपं सुलभमस्ति किन्तु किमर्थम् एतादृशरूपं तस्य प्रश्नस्य उत्तरं बहु क्लिष्टम् इति खलु तत्र रूपं तु सरलमेव अस्ति किन्तु एतद् विभक्ति अस्ति न वा अपि किमर्थम् एतादृशरूपं यथा भवत्या बहु समीचीनः प्रश्नः अस्ति भगिनि किन्तु प्रायशः उत्तरं तत्र व्याकरणस्य अधोगमनेन एव भवति इति चिन्तनम् इति मम चिन्तनम् अतः इतः रूपाणि दृष्टानि इदानीं अग्रे गच्छामः
तत्र कथं भवति इति एकवारं तत् रूपं पश्येम महोदय पुत्र अकारान्त अस्ति चेत्
अस्तु 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 अस्तु
तदेव वयं
अस्तु अतः नरेश महोदय तत्र नरेश महोदय तत्र पुत्रः मान्या तत्र प्रथम पुत्रः मान्या अम्बा लक्ष्मीः तेषां रूपाणि एकवारं पठतु महोदय सम्बोधनरूपाणि
आम् महोदय पुत्रः एकवचनं पुत्र द्विवचनं पुत्रौ बहुवचनं पुत्राः मान्या एकवचनं मान्ये द्विवचनं मान्ये बहुवचनं मान्याः अम्बा एकवचनं अम्ब द्विवचनं अम्बे बहुवचनं अम्बाः
लक्ष्मीः
लक्ष्मीः एकवचनं लक्ष्मी द्विवचनं लक्ष्म्यौ बहुवचनं लक्ष्म्यः
इति समीचीनं महोदय समीचीनं धन्यवादः अस्तु अग्रे रघुपतिमहोदय भवानेव पठति वा गौरी पिता माता गुरुः
लक्ष्मीः लक्ष्मीः खलु
लक्ष्मीः कृतं लक्ष्मीः कृतं गौरी
अस्तु गौरी गौरी इति ह्रस्व भवति गौर्यौ गौर्यः तत् प्रथमविभक्तौ रूपम् एव गौर्यौ गौर्यः इति पिता तत्र पितः इति भवति भिन्नमस्ति रूपं भिन्नमस्ति विसर्गः भवति पिता इति अस्ति ऋकारान्त अस्ति अतः पितः पितरौ पितरः इति तत् प्रथमविभक्तिरूपमेव माता इति अस्ति तत्र मातः इति तत्र विसर्गः ह्रस्व भवति अपि च विसर्गः मातः इति मातरौ मातरः इति प्रथमविभक्तौ रूपाणि एव गुरुः तत्र ओकारः भवति गुरो इति भवति अनन्तरं द्वितीय अपि सोरि द्विवचन बहुवचन प्रथमविभक्तिरूपमेव गुरु गुरवः इति
समीचीनं महोदय अत्र अतः केवलं तत्र सम्बोधने एकवचनरूपे एव भिन्न भिन्नता अस्ति प्रथमविभक्तिरूपं द्वितीय अपि सम्बोधनरूपे तत्र प्रायशः तत्र लता लते लताः तत्र अम्बा अम्बे अम्बाः किन्तु अम्बा इति स्थाने अम्ब इति भवति
द्वितीय द्विवचने बहुवचने किमपि परिवर्तनं नास्ति
केवलं एकवचने एव तत्र परिवर्तनं
परन्तु अस्ति न न अस्तु अम्बा अम्बे सीता सीते अस्ति अस्तु
तत्र भवान् तत्र भवान् अपि तत्र अग्रे पश्यामः श्रीमान् इति श्रीमन् श्रीमन्तौ भवान् भवन्तौ भवन्तः श्रीमन् इति भवति अस्तु अग्रे
एकवचने एव
भिन्नता अस्ति पूर्णेन्दुमहोदय अग्रे तत्र मित्रं मुनिः मन्त्री राजा श्रीमान् इति सर्वं
आं महोदय मित्रं तस्य सम्बोधने एकवचने मित्र, द्विवचने मित्रे, बहुवचने तु मित्राणि. मुनिः एकवचने मुने, द्विवचने मुनी, बहुवचने मुनयः. मन्त्री एकवचने मन्त्रिन्. अत्र रूपभिन्नं भवति महोदय.
सत्यं सत्यं, तत्र मन्त्री इति प्रायशः तत्र
प्रातिपदिकमेव आगच्छति. तत्र राजन् इति मन्त्री, श्रीमन् प्रातिपदिक एव अस्ति तत्र सम्बोधन.
द्विवचने मन्त्रिणौ, बहुवचने मन्त्रिणः. राजा अत्र अपि एकवचने प्रातिपदिकम् आगच्छति राजन् इति. द्विवचने राजानौ, बहुवचने राजानः. श्रीमान् एकवचने श्रीमन् प्रातिपदिकस्य रूपम् एव. द्विवचने श्रीमन्तौ, बहुवचने श्रीमन्तः.
हा इति अस्तु. तत्र रूपं सरलमेव अस्ति, केवलम् एकवचने तत्र भेदः अस्ति. द्विवचने बहुवचने प्रथमाविभक्तिरूपमेव अस्ति. किन्तु किमर्थम् एतादृशरूपम् अपि, किमर्थम् एषा अपि विभक्ति इति, तस्य प्रश्नद्वयस्य उत्तरम् इदानीं न प्राप्तुं शक्नुमः, अग्रे गत्वा एव प्राप्तुं शक्नुमः इति मन्ये. अस्तु, भानुचेतनी महोदय, नमस्कारः महोदय.
नमस्कारः
महोदय. नमस्कारः. नाम परिवर्तनं भवति, इदानीं सन्यासं स्वीकारं कृतवान् अस्ति इति, रघुवीरानन्दस्वामी
इति. अस्तु अस्तु, अस्तु अस्तु, धन्यवादः महोदय. अस्तु, इदानीं कथं वयं
रघुवीरानन्द एव,
रघुवीरानन्द
इति एव. अस्तु, रघुवीरानन्द इति. अस्तु अस्तु महोदय. अस्तु अस्तु, तर्हि नमस्कारः महोदय. अत्र अग्रे भवान् एव पठति वा पेज् 185 इति, तत्र कथा अस्ति अव्ययानिति.
महोदय, अहं पुस्तकं कुत्र इति अन्वेषणं करोमि.
अस्तु 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 महोदय, अस्तु अस्तु.
तदपि सन्यासं
स्वीकृतं स्वीकृतम् अस्तु, तदपि अन्यत्र गच्छतु. अस्तु अस्तु, तर्हि अस्तु. गीताञ्जलि भगिनी अग्रे आरम्भं करोतु भगिनी, तत्र गर्भभङ्गः इति कथा.
कथा महोदय. गर्भभङ्गः अव्ययानि इति एतां कथाम् उच्चैः पठत. मत्स्यदेशस्य महाराजः विराटः, पाण्डवाः अज्ञातवाससमये विराटराजस्य आस्थाने प्रच्छन्नरूपेण आसन्. श्रीगर्तनरेषः सुशर्मा विराटराजस्य गोसंपतिम् अपहर्तुं तत्र आगच्छति.
त्रिगर्त नरेशः इति, नरेशः इत्युक्ते राजा इति.
त्रिगर्त इति अहं न जानामि,
एकं देशस्य नाम.
त्रिगर्त
इति देशस्य नाम.
सुशर्मा इति नाम,
तस्य नाम सुशर्मा.
विराटः युद्धार्थं सन्नद्धः भवति. पाण्डवाः अपि तेन सह युद्धार्थं गच्छन्ति. पाण्डवानां सहायेन विराटः युद्धे जयं प्राप्नोति. सः त्रिगर्तं गच्छति.
सः त्रिगर्तं त्रिगर्तं त्रिगर्तं
त्रिगर्तं गच्छति
गच्छति गच्छति. समीचीनं भगिनि. अस्तु, अग्रे तत्र नरेश महोदय पठति वा.
अत्र अन्तरे कौरवाः सैन्यं विराटनगरम् आगत्य गोधनम् अपहरन्ति. तदा गवाध्यक्षः रक्षणाय राजकुमारम् उत्तरं निवेदयति. उत्तरः वदति यद्यपि अहं युद्धे कुशलः तथापि इदानीं न गच्छामि यतः इदानीं मम सार्थिः नास्ति यदि सार्थिः अस्ति तर्हि अहं युद्धार्थं गमिष्यामि दुर्योधनं भीष्मं कर्णं द्रोणं च विद्राव्य गोधनं रक्षिष्यामि इति
हा समीचीनं महोदय अस्तु हा तत्र प्रायशः अन्यम् एक अन्य एक परिच्छेदः अस्ति तद् बहु दीर्घं नास्ति इति प्रायशः तदपि पठित्वा यदस्ति तदेव तस्य एव हा अस्तु तत्र रघुपतिमहोदय अग्रिमं तत्र अस्ति तत्र तदा सैरन्ध्री
अस्तु तदा सैरन्ध्री वदति अत्र बृहन्नला या अस्ति पूर्वं सा अर्जुनस्य सारथिः आसीत् तां नय इति ततः सा एव बृहन्नलां तत्र आनयति बृहन्नला वदति गीतं नृत्यं वाद्यं च करिष्यामि सारथ्यं कथं करिष्यामि इति उत्तरं वदति गायकः नर्तकः च अनन्तरं भव इदानीं तु सारथी भव इति
हा इति हा एतावत् एतावत् अद्य कुर्मः तत्र अग्रे गत्वा किं किम् अस्ति इति पश्यामः अग्रिमवर्गे तत्र अस्तु इद एतावत् तत्र पूर्णेन्दुमहोदय किञ्चित् वदति वा प्रथमपरिच्छेदस्य पङ्क्तिशः दृष्ट्वा मत्स्यदेशस्य इति आरभ्य
आम् महोदय मत्स्यदेशस्य महाराजः विराटः पाण्डवाः अज्ञातवाससमये विराटराजस्य आस्थाने प्रच्छन्नरूपेण आसन् मत्स्यदेशस्य महाराजः विराटः मत्स्यदेश इत्युक्ते कस्मिन् एक देशः आसीत् तस्य देशस्य महाराजः विराटः आसीत्
तस्य नाम विराटः
राज्यस्य नाम विराटः पाण्डवाः अज्ञातवाससमये विराटराजस्य आस्थाने प्रच्छन्नरूपेण आसन् पाण्डवाः अज्ञातवासं स्वीकृत्य विराटराजस्य आस्थाने इत्युक्ते तस्य राज्ये प्रच्छन्नरूपेण छद्मरूपेण स्वपरिचयं किं
न भवेत् इति
न भवेत् इति छद्मरूपाणि गृहीत्वा तत्र गच्छन्ति
तत्र आसन् तत्र आसन् तत्र गच्छन्ति तत्र गच्छन्ति तत्र एकवर्षः यावत् तत्र तिष्ठन्ति तत्र आसन् तत्र तिष्ठन्ति समीचीनं महोदय तत्र हा समीचीनम् अग्रे
अग्रे त्रिगर्तनरेशः सुशर्मा विराटराजस्य गोसम्पत्तिम् अपहर्तुं तत्र आगच्छति त्रिगर्त इति राज्यं तत्र समीपे स्युः इति अहं मन्ये तस्य नरेशः सुशर्मा इति कश्चन राजा विराटराजस्य गोसम्पत्तिम् अपहर्तुं तत्र आगच्छति विराटराजस्य गोसम्पत्तिम् इत्युक्ते गोधन गोधन अपहर्तुं सुशर्मा आगच्छति अनन्तरं विराटः युद्धार्थं सन्नद्धः भवति
सन्नद्धः सिद्धः इति
सन्नद्धः
इत्युक्ते सिद्धः सिद्धः भवति सिद्धः भवति तत्र प्रायशः सम्पत्तिम् इति तत्र सम्पत्तिः इति स्त्रीलिङ्गपदम् इति मन्ये तत्र अपि तत्र घो इति तु तत्र किं गोशब्द ओकारान्तशब्दः अस्ति तत्र प्रायशः तत् पुल्लिङ्गे वा स्त्रीलिङ्गे समानमेव अस्ति इति मन्ये तत्र गौः इति एकवचने तत्र गोसम्पत् सम्पत्तिः अपहर्तुं तस्य अपहरणं कर्तुं सः सुशर्मा आगच्छति इति समीचीनं महोदय. अग्रे पाण्डवाः अपि
पाण्डवाः अपि तेन सह युद्धार्थं गच्छन्ति.
केन सह?
पाण्डवाः विराटेन सह
युद्धार्थं
युद्धार्थं
युद्ध्यर्थम् इति किमपि तुमन् रूपं दृष्टवन्तः खलु. तुमन् रूपं युद्ध्यर्थम् इति आसीत् खलु. किम् आसीत् तत्र?
योद्धुं.
योद्धुं 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 युध्यते. योद्धुं
पाण्डवाः पाण्डवाः सुशर्मा सहित योद्धुं सुशर्मेण सहितं योद्धुं अथवा
तत्र तेन सह इत्युक्ते तत्र कः कः मित्रम् इति तत्र किञ्चित् क्लेशः भवति. अतः विराटेन एव इति वदामः. तत्र सुशर्मा इति तत्र प्रायः शर्मा तत्र तदपि तत्र हलन्तशब्दः एव इति मन्ये. तत्र द्वितीयविभक्तिरूपं किम् अस्ति महोदय? जानाति वा भवन्तम् इति?
शर्मणम् इति भवति.
शर्मणं सुशर्मणं प्रति विराटेन सह इति प्रायशः तादृशं वदनेन तत्र क्लेशः न भवति इति मन्ये. पूर्णेन्दु महोदय
प्रति महोदय अगेन्स्ट्
इति
ओपन् संस्कृत डिक्शनरि मध्ये इति दत्तम् अभियोधति आयोधति प्रतियोधति.
अस्तु अस्तु प्रतियोद्धुं तत्र सुशर्मणं प्रतियोद्धुम् इति प्रायश रूपं भवति इति मन्ये. किन्तु तत्र अवगच्छामः किम् अस्ति तत्र विराटेन सह इत्युक्ते सः मित्रः एव इति. अस्तु अग्रे महोदय अन्तिमवाक्यं तत्र
अग्रिमवाक्यं पाण्डवानां सहायेन विराटः युद्धे जयं प्राप्नोति. पाण्डवाः विराटेन सहायं कुर्वन्ति अतः विराटः पाण्डवानां सहायेन एव युद्धे जयं प्राप्नोति.
युद्धानन्तरं
सः त्रिगर्तं गच्छति.
अस्तु पाण्डवाः अपि तेन सह गच्छन्ति इति मन्ये. न जानीमः. अस्तु समीचीनं.
सः त्रिगर्तं गच्छति इत्युक्ते
कः?
विराटः.
विराटः त्रिगर्तं गच्छति. विराटः त्रिगर्तं गच्छति. तत्र इदानीं तु तत्र किं सुशर्मा इति सः तु तस्य पराजितः अस्ति.
अतः तस्य राज्यं किं विराटः
गृहीतुं
तत्र गच्छति
इति मन्ये प्रायशः. किन्तु तत्र सुशर्मा किं करोति इति न दत्तमस्ति एतावत्. अस्तु समीचीनम्. अस्तु अग्रे गीतञ्जलि भगिनी किञ्चित्
राजा नास्ति चोरा अस्ति.
सत्यं महोदय उन्नतस्तरे सन्ति इति कृत्वा तत्र उन्नतरीत्या जीवनपालनं करणीयम् इति तत्र अस्तु अस्तु अग्रे गीतञ्जलि भगिनि.
अत्रान्तरे कौरवाः सैन्यं विराटनगरम् आगत्य गोधनम् अपहरन्ति.
तत्र अत्रान्तरे इत्युक्ते
यत्र विराटः
तत्र युद्धं सर्वं भवति
त्रिगर्तं गच्छति
तदा अथवा तत्र यदा युद्धं भवति तत्र सुशर्मा अपि विराटतयोः मध्ये हा युद्धं यथा भवति तस्मिन् समये कौरवाः विराटनगरम् आगच्छन्ति आगत्य
इति अहं मन्ये प्रथमयुद्धं समाप्तं
न तस्मिन् एव समये तत्र ते कौरवाणां चिन्तनं किम् आसीत् सर्वे सैनिकाः तत्र युद्धार्थं गच्छन्तः अतः ते तत्र तु नगरे तत्र गोधनं तत्र तस्य रक्षणं गोधनं यदस्ति तस्य रक्षणं न कर्तुं शक्नुवन्ति इति कृत्वा
इदानीं विराटः तत्र नास्ति खलु तत्र त्रिगर्तं गतवान् अस्ति अतः इदानीं कौरवः विराटम् आगत्य
तत्र अत्र अन्तरे इत्र इत्युक्ते तत्र युद्धसमये अथवा युद्धस्य अनन्तरं किन्तु तस्मिन् एव समये इति भगिनि तावदेव तत्र तत्र
अहमिति मन्ये विराटः त्रिगर्तं गच्छति इत्युक्ते मत्स्यदेशे विराटः नास्ति
तदेव भगिनि तदेव तत्र यदि सः प्राप्नोति तदनन्तरं कौरवः आगच्छन्ति अथवा एतद् गच्छति किञ्चित् दूरं गच्छति तस्मिन्नेव समये एते आगच्छन्ति इति न वक्तुं शक्नुमः तावत् अत्र अन्तरे इन् द मीन् वैल् इति
गोधनम् अपि अपहरन्ति इत्युक्ते कौरवाः तत् समये ससैन्यम् इत्युक्ते
सैन्येन सह
सैन्येन सह मत्स्यदेशे आगच्छति अपि च गोधनम् अपहरन्ति
यत् सुशर्मा कर्तुम् इष्टवान् कौरवाः कृतवन्तः
कार्यं कृतवन्तः तदा गवाध्यक्षः रक्षणाय राजकुमारम् उत्तरं निवेदयति गवाध्यक्षः इत्युक्ते
अध्यक्षः तत्र प्रायशः अध्यक्षः इति तस्य पूर्वं किमपि अस्ति चेत् तत्र प्रायशः तत्र षष्टी तत्पुरुषसमासः इति भवति इति मन्ये अतः तत्र षष्टी अस्ति गोः इति हा गोः अध्यक्षः गवाध्यक्षः इति
अत्र तु
कर्तृपदम्
रक्षणाय इति चतुर्थी रक्षणाय राजकुमारम् उत्तरम् इत्युक्ते राजकुमारम्
कर्मपदमस्ति उत्तरः
उत्तरं निवेदयति इत्युक्ते पृच्छति
प्रार्थनां करोति प्रार्थयति
प्रार्थयति
प्रार्थयति रक्षणं करोतु रक्षतु इति
उत्तरः वदति यद्यपि अहं युद्धे कुशलः तथापि इदानीं न गच्छामि
यद्यपि
यतः इदानीं मम सारथिः नास्ति यदि सारथिः अस्ति तर्हि अहं युद्धार्थं गमिष्यामि दुर्योधनं भीष्मं कर्णं द्रोणं च विद्राव्य गोधनं रक्षिष्यामि इति उत्तरम् उत्तरः वदति इत्युक्ते राजकुमारः उत्तरः वदति इति न महोदय?
सत्यं सत्यं भगिनि.
राजकुमारः वदति यद्यपि अहं युद्धे कुशलः तथापि इदानीं न गच्छामि. इत्युक्ते कथं वदामि महोदय, यद्यपि अहं युद्धे कुशलः, अहं युद्धे कुशलः अस्ति
अस्मि किन्तु इदानीं न गच्छामि.
इदानीं युद्धे न गच्छामि. युद्धे तु न, किन्तु रक्षणाय न गच्छामि.
हा इदानीम् अहं न गच्छामि तावदेव. इदानीं न गच्छामि. किमर्थम्?
यतः इदानीं मम सारथिः नास्ति.
मम सारथिः नास्ति, अहं कथं गन्तुं शक्नोमि इति सः पृच्छति.
राजकुमारः इति पृच्छति, यदि सारथिः अस्ति तर्हि अहं युद्धार्थं गमिष्यामि.
तत्र युद्धार्थं सारथिः आसीत् चेत् अहं गन्तुं शक्नोमि, युद्धार्थं गमिष्यामि एव. तत्र गत्वा किं करोमि? तत्र
दुर्योधनं, भीष्मं, कर्णं, द्रोणं च विद्राव्य न जानामि महोदय.
विद्राव्य लबन्तरूपं विद्राव्य इति इत्युक्ते ते ते गच्छन्ति इति. तत्र ते भीतिः अनुभवन्ति. ओ उत्तरं बहु सम्यक्तया युद्धं करोति, वयं तत्र तेन सह युद्धं न कर्तुं शक्नुमः, अतः इतः पलायनं कुर्मः इति.
ओ एस्केप्.
ते तादृशं कुर्वन्ति इति तस्य चिन्तनम्. ते तादृशं कुर्वन्ति, तादृशं कुर्वन्ति इति मम तस्य योजना अस्ति.
यदि अहं सारथी सह
सारथिः इति तत्र मतिशब्दवत् सारथिः. तत्र तृतीया किम् अस्ति? किन्तु सारथिः इति तु क्षम्यतां न सारथिः तु मतिशब्दवत् नास्ति. सारथिः पुल्लिङ्गशब्दः अस्ति. हरिः हरिणा, सारथिना 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 सारथिनः सह गच्छामि. यदि अहं सारथिना गच्छामि तर्हि तत्र नकारः एव भगिनि, णत्वं नास्ति. तत्र तकारः अस्ति
मध्ये.
बाधा अस्ति, अतः सारथिना नकारः एव.
यतः मम सारथी अत्र नास्ति, अहं
न गन्तुं शक्नोमि.
सारथिना विना न युद्धे
युद्धे न गन्तुं शक्नोमि.
अपि च दुर्योधनं, भीष्मं, कर्णं, द्रोणं सर्वे विद्राव्य अपि न कुर्वन्
न तत्र अस्तु एतादृशं वक्तुं शक्नुमः. तत्र यदि अहं सारथिना सह गच्छामि तर्हि युद्धं कृत्वा तत्र कीदृशयुद्धं करोमि? तत्र दुर्योधनः, भीष्मः, कर्णः, द्रोणः ते सर्वे किं कुर्वन्ति? युद्धात् पलायनं कुर्वन्ति ते सर्वे तदनन्तरम् अहम् अस्माकं गोधनं रक्षिष्यामि. गोसम्पत्तिः यदस्ति तस्याः रक्षणं करोमि इति.
किन्तु अहं न गच्छामि.
किन्तु न गच्छामि हा यदि गच्छामि एतत् सर्वं करोमि किन्तु न गच्छामि
गृहे शूरः गृहे एव शूरः अस्ति
इति अस्ति हा समीचीनं भगिनि अस्तु नरेश मोदी अग्रे
आं महोदय तदा सैरन्ध्री वदति अत्र गृहन्नला या अस्ति पूर्वं सा अर्जुनस्य सारथिः आसीत् तां नय इति सैरन्ध्री अस्ति तत्र सैरन्ध्री उत्तरस्य भगिन्य वदति
अत्र द्रौपदी एव सा सैरन्ध्री अत्र सैरन्ध्री रूपे
सा किम् अस्ति हा हा ता किन्तु सैरन्ध्री इति किन्तु सा किं तस्य रूपं किम् अस्ति तत्र वयं दृष्टवन्तः खलु तत्र
रूपम् इत्युक्ते महोदय प्रथमविभक्ति कर्तृपदं
न न भगिनि तत्र सैरन्ध्री इति सा किं करोति तत्र सा उत्तरा इति उत्तरायाः
सखी भूत्वा तस्य सेवा
करोति सखीपि किमपि अस्ति तत् पूर्वं वयं
सैरन्ध्री इत्युक्ते यदा राजस्य
राजकुमार्या
सेवां करोति तेषां नाम अस्ति नाम अस्ति सैरेन्द्रीयः इति सैरेन्द्री प्रोफेशन् अस्ति
नाम सैरन्ध्री अस्ति
किं महोदय
द्रौपदी
द्रौपद्याः नाम सैरन्ध्री सत्यं
इदं प्रच्छन्नरूपेण तद् सैरेन्द्री भूत्वा तत्र गच्छति खलु
अतः तत्र गीतासोपने एव कुत्रचित् आसीत् खलु तत्र कुत्र वयं
दृष्टवन्तः
तत्र अस्तु अस्तु पेज् 181 पश्यतु तत्र अस्ति तत्र तत्र द्रौपदी केशकर्मणि कुशला अतः सैरन्ध्री भूत्वा सुदेष्णां सेवते सुदेष्णा इति राजकुमारी तत्र उत्तरस्य भगिनी
अस्ति
सुदेष्णा इति अस्तु
सैरन्ध्री वदति बृहन्नला अर्जुनस्य सारथिः आसीत् कस्मिन् समये सा वदति तां
नय नय
युद्धे
ताम् इत्युक्ते कां ताम् इत्युक्ते
बृहन्नला
बृहन्नलां तां बृहन्नलां नय
युद्धे नय ततः ततः सा एव बृहन्नलां तत्र आनयति
तत्र सा इति इत्युक्ते का
सैरन्ध्री
सैरन्ध्री एव बृहन्नलां तत्र आनयति इदानीं बृहन्नला किं वदति
बृहन्नला वदति गीतं नृत्यं वाद्यं वा करिष्यामि सारथ्यं कथं करिष्यामि सारथिकार्यं न कर्तुं शक्नोमि अहं तु गीतं नृत्यं वाद्यं
एतादृशं करिष्यामि किन्तु सारथिः कथम् अहं भूत्वा न भवितुम् अर्हामि इति अतः उत्तरः
उत्तरः वदति गायकः नर्तकः च अनन्तरं भव इदानीं तु सारथिः भव इति
अतः इदानीं तत्र बृहन्नला इति तत्र अर्जुनस्य रूपं बृहन्नला इति तत्र बृहन्नला सारथिः भूत्वा तदनन्तरं तत्र उत्तरः योद्धुं गच्छति. अग्रे किं भवति इति अग्रिमवर्गे पश्यामः. तत्र उत्तरः
विदूषकः अस्ति. उत्तरः
उत्तरः उत्तर उत्तर युद्धार्थं गच्छति. तदनन्तरं किं दुर्योधनः अपि भीष्मः कर्णः द्रोणः ते सर्वे पलायनं कुर्वन्ति न वा इति अग्रिमवर्गे पश्यामः. अथवा उत्तरः एव पलायनं करोति वा इति. तत्र चित्रे द्रष्टुं शक्नुमः खलु.
महोदय, अत्र विराटः त्रिगर्तं गच्छति पाण्डवैः विना.
न, पाण्डवैः सह.
पाण्डवैः सह, पाण्डवैः सह. हा, तत्र केवलम् इदानीं तत्र अर्जुनः बृहन्नल एव अस्ति, अपि सैरन्ध्री अस्ति, तावदेव. सर्वे अन्यैः सर्वे अन्ये सर्वे विराटेन सह गच्छन्ति.
वदति खलु, मम पिता त्रिगर्तदेशं गतवान् अस्ति, सर्वमपि सेनां सह नीतवान् अस्ति, अहम् एकः बालः अस्ति इति.
अत्र कथां जानीमः भगिनि, तावदेव. तत्र कथां जानीमः अथवा तत्र महाभारत इति यत् सीरियल् आसीत् तत् दृष्टवन्तः.
इदानीम् आगच्छति
पुनः दूरदर्शन मध्ये आगच्छति. महोदय,
अस्तु
अस्तु, बहु समीचीनं. हा, बहु समीचीनम् अस्ति. ओ, बहु समीचीनम् अस्ति भगिनि. तत्र
यूट्यूब् मध्ये अस्ति महोदय.
यूट्यूब् मध्ये अस्ति, यूट्यूब् मध्ये अस्ति, बहु समीचीनम् अस्ति. तत्र हिन्दी मध्ये अस्ति अपि, बहु सम्यक् अस्ति भगिनि.
लाकौट् मध्ये
एतत् सर्वं तत्र द्रष्टुं शक्नुमः. सत्यमेव, रामायण अपि महाभारत. हा, समीचीनं. अस्तु तर्हि,
महाभारत प्रचलति,
महाभारत अपि प्रचलति. अस्तु, एकनिमिषं.
अस्माकं देशे अपि इदानीं सर्वत्र.
अस्तु अस्तु, इदानीम् अवगतं महोदय. अस्तु अस्तु, एकनिमिषं रेकार्डिङ्ग् स्थगनं, तस्य स्थगनम्.